विश्वस्याभिनवोन्मेषान् दिव्यवाचा विवृण्वति सेयं साप्ताहिकी सद्भिः सेव्यतां संवितन्वति। अयि सुरभारती समुपासकाः श्रोतारः, संस्कृत साप्ताहिक्याः नूतने अङ्केऽस्मिन् भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। श्रव्यपत्रिकायाः अङ्कमेतम् आदाय पुनरेकदा उपस्थितोऽस्मि अहम् दिव्यानन्द झाः। अयि सत्यनिष्ठाः श्रोतारः, सत्यमेव सर्वस्य आधारभूतम् शक्तिमूलम् च, अतः अस्माभिः सततम् सत्यम् उपासितव्यम्। सम्प्रति एतादृग् भावभरितम् एव सुभाषितमेकम् प्रस्तौति मम सहयोगी पुरुषोत्तम शर्मा।
सत्येन रक्ष्यते धर्मो, विद्यायोगेन रक्ष्यते, मृजया रक्ष्यते पात्रम्, कुलं शीलेन रक्ष्यते। अर्थात सत्य का पालन करने से धर्म की रक्षा होती है, सदा अभ्यास करने से विद्या की रक्षा होती है, मार्जन से पात्र की रक्षा होती है और सदाचार से कुल की रक्षा होती है।
अयि संस्कृत भक्ताः, सम्प्रति सरामः प्रसंग प्रभागं प्रति, यत्र अद्य भक्तवत्सलस्य वेङ्कटाचलवासिनः भगवतो वेङ्कटेशस्य स्तवनं करोति मम सहयोगिनी निधिझाः।
चूचुक कुङ्कुमतो नियतारुणितातुलनीलतनु कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते। सचतुर्मुख षण्मुख पञ्चमुख प्रमुखाखिल दैवत मौलिमणे शरणागत वत्सल सार निधे परिपालय मां वृषशैलपते। अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतै भरितं त्वरितं वृषशैलपते, परया कृपया परिपाहि हरे।
अयि जागरूकाः श्रोतारः, जागतिक घटनाः ज्ञातुम् सम्प्रति चलामः वार्ता प्रभागम् प्रति। अद्य साप्ताहिक वैश्विक वार्ताः प्रस्तौति अस्मदीया सहयोगिनी सुषमा कुमारी।
प्रधानमन्त्री नरेन्द्र मोदी मुम्बय्यां प्रथम विश्व श्रव्य दृश्य मनोरंजन शिखर सम्मेलनम् उद्घाटितवान्। केन्द्रीय मन्त्रिमण्डलेन आगामि जनगणनायां जाति गणनां समावेशयितुम् अनुमतिः प्रदत्ता। पहलगाम आतंकी आक्रमणमालक्ष्य भारतेन पाकिस्तानीय वैमानिक सेवाः निरस्त्रीकृताः। बांग्लादेशस्य सर्वोच्च न्यायालयेन इस्कॉन इति संस्थायाः पूर्वसंतस्य चिन्मय कृष्णदासस्य प्रत्याभूति याचिका निरस्त्रीकृता। अमेरिका युक्रेन देशौ खनिज सन्धिपत्रैः प्रमाणीकृते। गुरिन्दर वीर सिंहः, अनिमेष कजूरः, मणिकांत होब्लीधरः, अमलान बोरगोहेनश्च चंडीगढ़े भारतीय मुक्त रिले प्रतियोगितायां द्विगुणित शत मीटर रिले धावन स्पर्धायां राष्ट्रीय स्तरं संप्राप्तवन्तः। गुरुवासरे विश्व श्रमिक दिवसः आमानितः। श्रमिकान्दोलनेषु विविध देशानां अर्थव्यवस्थायां श्रमिकाणां योगदानानां रेखांकनार्थं मई मासस्य प्रथम तारिकायां श्रमिक दिवसः परिपाल्यते।
अयि सुधियः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थिताः विद्यन्ते महात्मा गांधी काशी विद्यापीठस्य संस्कृत विभागाध्यक्षचराः नाना पुरस्कार सभाजिताः आचार्याः प्रोफेसर राममूर्ति चतुर्वेदी महाभागाः। सम्प्रति अस्मदीय सहयोगिन्या निधि तिवारिणा साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान प्रवाहं प्रति प्रोफेसर चतुर्वेदी वराणां विचारान्।
प्रियाः मे श्रोतारः, स्वागतमस्ति भवताम् समेषाम् एतस्मिन् ज्ञान विज्ञान प्रभागे संस्कृत साप्ताहिकी इति विशिष्टे कार्यक्रमे। श्रोतारः, अद्य साक्षात्कारयुते संवादक्रमे मया सह विराजन्ते वाराणसी स्थितस्य महात्मा गांधी काशी विद्यापीठस्य संस्कृत विभागाध्यक्षचराः वेदपण्डित पुरस्कारेण वेदतत्त्वज्ञान सम्मानेन अनेकैः च सम्मानैः सम्मानिताः स्वनाम धन्याः प्रोफेसर राममूर्ति चतुर्वेदी महाभागाः। प्रणति पुरस्सरम् अहम् निधि तिवारी भवताम् स्वागतम् आचष्टे।
धन्यवादः।
अस्तु महोदयाः, सर्वप्रथमम् अहम् ज्ञातुम् इच्छामि यत् समसामयिक प्रसंगे यदा युवानः मानसिकावसादेन पीडिताः सन्ति इति तदा वेदेषु यूनां कृते के च उपायाः अन्तर्निहिताः मानसिकापवादस्य दूरीकरणविषये।
वागीशाद्या सुमनसः सर्वार्थानाम् उपक्रमे यन्नत्वा कृतकृत्याशुस्तन्नमामि गजाननम्। मान्याः सर्वेऽपि श्रोतारः।
अस्तु महोदय, समीचीनतया प्रतिपादितं भवद्भिः। अस्तु, साम्प्रतिके समये वेदानाधृत्य विकसित भारतस्य निर्माणे प्रशासनिकाधिकारिणः, विद्यार्थिनः इत्यादीन् च कथं स्वभूमिकां निर्वोढुं शक्नुवन्ति? यतोहि भारत प्रशासनस्य एतत् लक्ष्यम् अस्ति यत् विकसित भारतस्य निर्माणम् अस्माभिः करणीयम् इति।
भवतु, तत्र वेदानुसारं यद् वचनं भागवते प्राप्यते तद् यदि अस्माभिः विवृंश्यते तदनुसारम् उच्यते नायं जनो मे सुखदुःखहेतुः न देवतात्मा ग्रहकर्मकालाः मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेत् यत्। एतत् श्लोकस्य अयम् आशयः यत् मनः परं कारणम् अस्ति, मनः तावत् दुर्बलं भवति तर्हि स्वकर्तव्यपूरणे जनः असमर्थो भवति। यदा मनोबलं विकसितं भवति तदा स्वकीयकर्तव्यपूरणे जनः सर्वथा समर्थो भवति। अतः अधिकारी जनानाम् अथ च प्रशासनिकजनानाम् अथ च विद्यार्थिनां सर्वेषां स्वस्वकर्तव्ये मनोबलस्य आवश्यकता अस्ति। यदि मनः दुर्बलं वर्तते तर्हि स्वकर्तव्यनिर्माणे अक्षमता आयाति। अत एव मनस्य तावत् दौर्बल्यम् अपाकरणाय, मनोबलस्य तावत् वर्धनाय वेदोऽखिलो धर्ममूलं यद् वर्तते तर्हि वेदोक्तं यद् उपायं वर्तते तद् उपायम् अवश्यम् आश्रयणीयम् इति अस्ति। तर्हि वारं वारं भगवता व्यासेन उक्तं महात्मानः श्रुतेन अर्थेनैव वेदोपायं वर्णयन्ति। अतः श्रुतेन उपायेन यत् वर्णनम् अस्ति तद् आश्रित्य अस्माभिः सर्वैः स्वकीयं मनः प्राबल्यं सामर्थ्यवन्तं च कर्तुं शक्नुमः। अतः मनः एव तावत् परं कारणम् अस्ति, मनः एव तावत् दुर्बलं भवति तदा कर्तव्यहीनता आयाति। मनः यदि समृद्धं भवति तर्हि स्वकीयं सर्वं तावत् कार्यजातं समग्रेण तावत् रूपेण सेत्स्यति इति अस्ति आशयः।
अस्तु महोदय, यथा वेदेषु सामाजिकव्यवस्था अपि निहिता अस्ति तावत् तां सामाजिकव्यवस्थां समाश्रित्य सम्प्रति ये जनाः परिवारे निवसन्ति तेषां कृते एषा व्यवस्था कथं समीचीना भवितव्या इति प्रतिपादयतु।
वस्तुतः समाजे तावत् प्रथमतः पारिवारिकी भावना आगन्तुं शक्नोति चेत् तर्हि तावत् परिवारतः एव समाजः वर्धते। प्रथमतः स्वकीये गृहे, स्वकीये कुटुम्बे, पारिवारिकजनानां मध्ये सौमनस्यं स्यात्। तत् सौमनस्य बलेनैव समाजस्य सौमनस्यं वर्धते। पारिवारिक सौमनस्येन सामाजिक सौमनस्यं, सामाजिक सौमनस्येन तावत् राष्ट्रस्य सौमनस्यं भवति। अतः एव वेदोक्तं यद् उपायं वर्तते तद् उपायम् आश्रित्य यदा वयं कुटुम्बिजना समग्रं तावत् कुटुम्बम् एक दिशानिर्देशयुक्तं भवेत् तर्हि तेनैव तावत् दिशानिर्देशेन समाजस्य ऐक्यं, तेनैव तावत् दिशानिर्देशेन समाजानाम् ऐक्यं, समाजानाम् ऐक्येन तावत् विशिष्य कुटुम्बस्वरूपं भवितुम् अर्हति। अत एव अस्माकं धर्मशास्त्रे अथ च नीतिशास्त्रे अयं निजः परो वेत्ति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् इति नीतिवचनम् आयाति। एतेन नीतिवचनेन इदमेव आयाति, प्रथमतः अस्माकं सौमनुष्यं परिवारे भवेत्। परिवारस्य तावत् या संख्या अस्ति तान् सर्वान् सदस्यान् प्रति आत्मीयता भवेत्। तदनन्तरं समाजे आत्मीयता वर्धते, तदनन्तरं राष्ट्रे आत्मीयता भवति। अनेन तावत् वेदोक्तनिर्दिष्टदिशा वर्तमानेन कार्येण वयं तावत् समग्रं राष्ट्रम् एकीकर्तुं शक्नुमः।
अस्तु आचार्याः, अधुना यदा वयं पश्यामः समाजे आङ्ग्लभाषिणाम् एकः समूहः अथवा आङ्ग्लभाषायुतान् विद्यालयान् प्रति तेषाम् आकर्षणं संवर्धते, तावत् एतस्मिन् क्रमे वैदिकी शिक्षाप्रणाली कुत्र सन्तिष्ठते, कृपया प्रतिपाद्यताम्।
मान्याः, यथा वयं जानीमः नवीने वस्तुनि सर्वेषां स्पृहा जायते, प्राचीनेषु वस्तुषु कदाचित् तावत् मनः न रञ्जयितुं शक्यते, अतः तत्र इयमेव तावत् सामान्या प्रवृत्तिः वर्तते मानवानां, नवीने वस्तुनि तावत् स्पृहा जायते। अत एव भारतस्य कृते आङ्ग्लभाषा नवीना भाषा, भारतीयानां तु प्राचीनं रिक्थं प्राचीनं वैभवम् अस्माकं संस्कृतभाषायां निबद्धं वर्तते। यदि वयं प्राचीनं तावत् गौरवं ज्ञातुं प्रभवामः, तर्हि संस्कृतभाषामन्तरा नास्ति कश्चित् अन्यः उपायः। अतः यदि एकेन पादेन गन्तुं न शक्यते लोके, द्वाभ्यां पादाभ्याम् एव गतिर्भवति। अतः प्राचीनम् अस्माकं यत् रिक्तं वर्तते, यद् वैभवं वर्तते, यद् अतीतस्य गौरवं वर्तते, तद् ज्ञातुं यदि वयं प्रभवामः, तर्हि संस्कृतभाषामाध्यमेन सह आङ्ग्लभाषा सहायिका भवितुम् अर्हति। आङ्ग्लभाषामाध्यमेन विश्वस्य तावत् सर्वसमाचारं ज्ञातुं शक्नुमः, अथ च सर्वं रहस्यजातं ज्ञातुं शक्नुमः। परन्तु स्वकीयं भारतीयवैभवं परित्यज्य तथा कर्तुं न शक्नुमः, अतः सर्वं तावत् श्रेयस्करं भवेत् एतदर्थं स्वकीयं यत् भाषावैभवं वर्तते, संस्कृतगौरवं वर्तते, तम् आश्रित्येव तावत् आङ्ग्लभाषायाः आश्रयः सुखकरः श्रेयस्करः श्रेयस्करश्च भवितुम् अर्हति।
अस्तु महोदयाः, यथा वयं जानीमः यत्र बालानां विकासाय संस्कृतभाषा अपेक्षिता वर्तते, तावत् संस्कृतभाषां समाश्रित्य बालानां विकासः कथं भवितुं शक्नुवन्ति, कृपया प्रतिपादयतु।
अस्माकं बालाः तावत् नवीन बुद्धयः भवन्ति, यन्नवे भाजने लग्ने संस्कारो नान्यथा भवेत्, कथा छलेन बालानां नीतिस्तदिह कथ्यते इति विष्णुशर्मणा प्रतिपादितम्। यद् बालानां तावत् मनः अतीव तावत् निर्मलं भवति, अतीव तावत् कोमलं भवति, तस्मिन् मनसि यत् किमपि संस्कारः अस्माभिः स्थापयितुं शक्यते। अतः बालानां कृते मधुरं प्रियं हितकरं यत् तावत् उपदेशजातं संस्कृतवाङ्मये वर्तते, तस्य तावत् प्रभावः अस्माकं बालकानां मनसु तावत् आनेयम् इति अस्माकं प्रथमतः कर्तव्यम् अस्ति। यतोहि यत्किमपि भवति मधुरं तत् प्रियमपि भवेत् इति नास्ति तावत् अनिवार्यता। अस्माकं संस्कृतभाषा प्रियापि अस्ति, मधुरापि अस्ति। प्रियत्वं नाम हितत्वं, लोकहितस्य तावत् सर्वत्र अपेक्षा वर्तते, प्रियत्वं तु सर्वत्र प्राप्यते, परन्तु तत् अन्तः हितकारकं तत्त्वम् अस्ति न वा इति संस्कृतभाषायामेव अन्वेष्टुं शक्यते। अतः संस्कृतभाषामाध्यमेनैव बालानां संस्कारः कर्तुं शक्यते, बालाः सुबुद्धा भवितुम् अर्हन्ति। अतः समाजे राष्ट्रे अथ च परिवारे सर्वत्र ते यशोधना भवितुम् अर्हन्ति।
अस्तु महाभागाः, आकाशवाण्यै प्रदत्ताय अवधये पौनः पुन्येन अहं धन्यवादान् आविष्करोमि।
धन्यवादाः। अत्र सर्वेभ्यः अस्माकं ये वरिष्ठाः सन्ति तेभ्यः प्रणामाः, कनिष्ठाः ये सन्ति तेभ्यः कृते शुभाशीर्वचांसि प्रहीयन्ते।
आचार्याणां प्रोफेसर राममूर्ति चतुर्वेदी महाभागानां वचनानि श्रुत्वा जाताः वयम् अतितराम् आप्लाविताः। अयि संस्कृतप्रेमिणः, आगच्छन्तु संस्कृत दिग्दर्शिनी प्रभागे यत्र विश्वस्मिन् अपि विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति निधि तिवारी।
श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयस्य आधुनिक विषयपीठ सर्वदर्शन विभागस्य भारतीय दार्शनिकानुसंधान परिषदः च इत्यनयोः संयुक्त तत्वावधाने आयोजिता त्रिदिवसीया राष्ट्रीय संगोष्ठी। अस्याः संगोष्ठ्याः विषयः आसीत् प्राचीन भारतीय ज्ञानपरम्परायाः परिप्रेक्ष्ये सामाजिकं राजनैतिकं च दर्शनम्। गतमासस्य 30 दिनांके श्रीलाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयस्य वेद विभागेन धीवर्धिनी सभा समायोजिता। सभेयं छात्राणां ज्ञानाभिवर्धनाय अधीत विषयाणां च परिचर्चायै समनुष्ठिता। संस्कृत भारत्याः देहली प्रान्तेन आयोजितानां 88,000 संस्कृत सम्भाषण शिबिराणां सामूहिक समापन समारोहः मे मासस्य 4 दिनांके दिल्ली विश्वविद्यालये खेल परिसरे समायोज्यते।
अयि रसिकाः श्रोतारः, जानीमो वयं यद् बालाः कथासु गीतेषु च भवन्ति कियन्तः रुचिमन्तः। तर्हि आगच्छन्तु एहि शृणुमः बालमनोवल्लरी प्रभागे वर्णमाला गीतमेकम्, तच्च मनोहर शैल्या प्रस्तौति साधना शर्मा।
बालाः, अद्य अहं कविता माध्यमेन वर्णमालां श्रावयामि। कमलं विकसति सुन्दर सरसि क क ग घ ङ, चटकः गायति च्यू च्यू गीतं च छ झ झ य, टण टण नादं करोति घंटा ट ठ ड ढण, तरुवर शाखा हरिता हरिता त थ द धन, पश्यतु पश्यतु लघु लघु मत्स्यान् प फ ब भ म, यत्र तत्र रे चित्र पतंगा य र ल व, शशको शावक धावति कूर्दति शशस ह, पठन्तु सर्वे वदन्तु सर्वे कूचूटु तूपु, कंठे कंठे सदैव भवतु वर्णानां माला, मालां धृत्वा गायतु गीतं ला 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 ला।
अहो, नितरां कर्णप्रियं ज्ञानवर्धकं च गीतम्। मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतं, यत्र मम सहयोगिनी मुदिता वेतालः प्रस्तौति राष्ट्रियैक्यद्योतकं भाषात्रय संगमम्।
प्रथमं वाक्यमस्ति, अस्माकं देशे बहवः समुद्रतटाः सन्ति। पहला वाक्य है, हमारे देश में बहुत सारे समुद्र तट है। मैथिली में, अपन सबहक देश में खूब समुद्रक तट अछि। द्वितीयं वाक्यमस्ति, एतेषु मुंबई गोवा कोच्चि इत्यादयः अतीव प्रसिद्धाः सन्ति। दूसरा वाक्य है, इनमें से मुंबई गोवा कोच्चि आदि बहुत प्रसिद्ध है। मैथिली में, एही सब म मुंबई गोवा कोच्चि सबसे बेसी जानल जाइत अछ। तृतीयं वाक्यमस्ति, गोवा तटः विदेशी पर्यटकेभ्यः समधिकं रोचते। तीसरा वाक्य है, गोवा तट विदेशी पर्यटकों को सर्वाधिक प्रिय है। मैथिली में, गोवा का तट दोसर देश से आवे बला के खूब नीक लागे छे। चतुर्थम वाक्यमस्ति, भारतस्य तिसृषु दिशासु समुद्र तटाः सन्ति। चौथा वाक्य है, भारत के 3 दिशाओं में समुद्र तट हैं। मैथिली में, भारत का 3 दिशा में समुद्रक तट अइच। धन्यवादाः।
प्रिया श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्ना। इमं कार्यक्रमम् उपसंहर्तुम् अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल् संकेतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मंगलम्।